भ्यो नमः। गतवर्गे वयम् अव्यय इति विषये किञ्चित् अभ्यासं कृतवन्तः। तथा तत्र प्रति दिक् अलं सदृशः ऋते पूर्वं पर विना इति तेषां विषये अभ्यासं कृतवन्तः। तत्र उपपदविभक्तयः इति विषयः आसीत्। तत्र गृहपाठरूपेण केचन कानिचन वाक्यानि लिखन्तु इति आसीत्। तद् तद् दृष्ट्वा अग्रे गच्छामः। इदानीं तदनन्तरम् अस्माकं मूलविषयः भवति हलन्तपुल्लिङ्गशब्दाः इति, तेषां प्रथमविभक्तिरूपं तद् पश्यामः अद्य। अस्तु, तर्हि तत्र कोऽपि वक्तुम् इच्छति वा? तत्र ऋते विना इति तादृश अव्ययानि उपयुज्य वाक्यम् अस्ति चेत् कृपया वदन्तु।
सदृशः भारतस्य सदृशः देशः विश्वे नास्ति।
भारतस्य सदृशः तत्र सदृशः अस्ति चेत्, हा तत्र समीचीनं महोदय, तृतीय अथवा षष्टि, समीचीनं समीचीनं महोदय, हा समीचीनं वाक्यं महोदय। अन्यत् अपि अस्ति वा?
अलं शिशिरः ऋतुः, ग्रीष्म ऋतुः इच्छामि।
अलं
शिशिरः ऋतुः, ग्रीष्मः ऋतुः इच्छामि।
तत्र ऋतुः इति प्रायशः उकारन्त पुल्लिङ्गपदम् अस्ति इति मन्ये, खलु? तत्र अलम् अस्ति चेत् तत्र किं भवति? अलम् इति अस्ति चेत् विभक्ति का तत्र? अतः तत्र ऋतुः किं भवति? गुरुः, गुरुः शब्दस्य तृतीया अस्ति।
गुरो
गुरुणा अत्र ऋतुना ऋतुना नकारः। अतः अलम् अलं
शिशिरेण ऋतुना,
शिशिर अथवा शिशिर ऋतुना इति, हा शिशिर ऋतुना इति समस्तपदं कृत्वा एकमेव विभक्ति, एका एव विभक्ति। अहम् इदानीं तत्र अहं ग्रीष्म ऋतुं, तत्र कर्मपदं भवति, हा ग्रीष्म ऋतुम् इच्छामि, गुरुं, हा ग्रीष्म ऋतुं ऋतुम् इच्छामि, हा इति समीचीनं महोदय। अन्यत् वाक्यमस्ति वा? एकनिमिष भगिनि, एकनिमिष, नरेश महोदय। अस्तु अस्तु महोदय, अस्तु पाकिस्तानदेशम्।
परं देवालयात् परम् अहं विद्यालयं गच्छामि।
देवालयात् परम् अहं विद्यालयं गच्छामि, समीचीनं महोदय, समीचीनं, हा समीचीनं महोदय, धन्यवादः, धन्यवादः महोदय। ऋते अपि अस्ति वा? अस्तु वदतु।
ऋते विना अपि अस्ति, शिक्षात् ऋते जीवनं सम्पूर्णं नास्ति।
कस्मात्? कस्य ऋते?
शिक्षात्, शिक्षात् ऋते जीवनं सम्पूर्णं नास्ति।
हा समीचीनं महोदय, हा विना इति
श्रमं विना न किमपि साध्यम्,
हा न किमपि साध्यम्। अस्तु समीचीनं महोदय, धन्यवादाः। हा ललिता भगिनि इदानीं वदतु भगिनि। धन्यवादः महोदय, ललिता भगिनि वदतु भगिनि।
केवलम् एकं वाक्यं, केवलम्
अस्तु अस्तु अस्तु, वदतु वदतु, यदस्ति वदतु भगिनि, चिन्ता मास्तु।
महाभागवतपुराणस्य सदृशः किमपि पुराणं नास्ति।
पुराणस्य सदृशः किमपि पुराणं नास्ति। तत्र पुराणम् इति लिङ्गं किं? पुराणम् इति पदस्य
पुराणं
नपुंसकलिङ्गं अतः तत्र पुनः एकवारं वदतु भवत्याः वाक्यं
श्रीमहाभागवतपुराणस्य सदृशः
सदृशम् इति नपुंसकलिङ्गे अस्ति चेत्
सदृशं
सदृशं सदृशम् इति सदृशः इति पुल्लिङ्गरूपं सदृशी इति स्त्रीलिङ्गरूपं सदृशम् इति
नपुंसकलिङ्गं
पुराणं सदृशम् इति अस्तु 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 रोगं दिक् रोगेण इति प्रायशः तत्र दिक् अस्ति चेत् तत्र रोगं दिक् इति द्वितीया भवति रोगं रोगम् इति समीचीनं रोगं रोगं दिक् इति रोगं रोगं द्वितीया एव दिक् इति द्वितीया अलम् इति अत्र तृतीया समीचीनमेव आसीत् भगिनि करोना वैरस् रोगं इति समीचीनं भगिनि अस्तु अन्य कोऽपि अस्तु अस्तु अन्य कोऽपि वक्तुम् इच्छति वा
अहं वदामि महोदय
अस्तु लक्ष्मी भगिनी वदतु भगिनि
बालकाः पठनाय विद्यालयं प्रति गच्छति
समीचीनं
अनन्तरं व्यासेन सदृशः कविः संसारे नास्ति अनन्तरं भगवतः ऋते कः मां रक्षति
समीचीनं भगिनि
रक्षति एव भवति
समीचीनं कः मां रक्षति समीचीनम् अस्ति भगिनि
अस्तु
समीचीनं भगिनि
पुनः पुनः वदतु वाक्यं
लक्ष्मी भगिनी पुनः अन्तिमवाक्यं पुनरेकवारं वदतु भगिनि
भगवतः ऋते कः मां रक्षति
भगवतः भगवान् इति पदस्य
भगवतः
अत्र पञ्चमी क्षम्यताम् अत्र पञ्चमी भगवतः ऋते इति समीचीनं महोदय ऋते इति पञ्चमी अत्र भगवतः इति पञ्चमी रूपं भगवतः ऋते कः मां रक्षति समीचीनम् अस्ति
धन्यवादः
अस्तु अन्य कोऽपि वक्तुम् इच्छति वा
अहं प्रयत्नं करोमि महोदय
अस्तु गीतञ्जलि भगिनी रघुवीरानन्दमहोदय नमस्कारः
नमस्कारः महोदय शुभोदयं
शुभोदयं महोदय अन्य कोऽपि अस्ति वा श्रीनिवासः अस्तु स्वागतं महोदय नमस्कारः अस्तु गीतञ्जलि भगिनी वदतु भगिनी
कार्यालये अलम् अचञ्चलेन
अस्तु
समीचीनं
महोदय अलं तत्र वाक्यं प्रायशः अलम् अचञ्चलेन इति तावदेव
तदनन्तरं संस्कृतस्य सदृशा कापि अन्या भाषा नास्ति
संस्कृतस्य
किन्तु तत्र तदनन्तरम् अग्रिमभागे भवती किम् उक्तवती भगिनि
संस्कृतस्य सदृशः इति समीचीनं
तत्र तत्र संस्कृतस्य इति अस्ति खलु तत्र कीदृशपदम् अस्ति तत्र संस्कृतम् इति पदं वा अथवा संस्कृतम् इति अतः नपुंसकलिङ्गपदम् अस्तु संस्कृतस्य तदनन्तरं किं भवति संस्कृतस्य
सदृशा कापि अन्या भाषा
नास्ति अस्तु अतः तत्र अग्रे भाषा अस्ति अस्तु संस्कृतस्य सदृशम् अथवा सदृशी
कथं जानीमः महोदय
किं तत्र यत् यत् तत्र सदृशी इति किं भवति भगिनि वाक्ये
नपुंसकलिङ्गि
तत्र भवत्याः वाक्यं एतत् कुर्मः भवत्याः वाक्यस्य द्वितीयभागं स्वीकुर्मः भगिनि भाषा अन्या नास्ति इति खलु भाषा अन्या नास्ति इदानीं तत्र कीदृशी भाषा सदृशी भाषा कीदृशी सदृशी भाषा संस्कृतस्य सदृशी भाषा अन्या नास्ति अत्र सदृशी इति विशेषणं भवति खलु अतः तत्र कीदृशविशेषणम् इति पुनः तत्र षष्टिरूपम् आगच्छति तत्र तावदेव संस्कृतस्य सदृशी भाषा अन्या नास्ति इति हा तत्र सदृशी इति पदं विशेषणं भवति अग्रे यत् पदम् आगच्छति तस्य पूर्वपदस्य न
सदृशा इति किमपि
नास्ति सदृशः सदृशी सदृशम् इति मन्ये
धन्यवादः अपि च धिक् नरान् आलसान्
नरान् अथवा केवलं नराणाम् आलसन् अथवा तत्र
ओ ओ अस्ति वा ऐ थाट् कर्म
हा अस्तु किन्तु किं वक्तुम् इच्छति तत्र पदद्वयमपि कर्मपदम् इति वा अथवा तत्र षष्टी अन्तर्भूता अस्ति वा नरान् इत्युक्ते दिक् नरान् इति वक्तुम् इच्छति वा अथवा तेषाम् आलस्यम् इति तस्य दिक् वा इति
नराणाम् एव महोदय क्षम्यताम्
अस्तु हा नराणाम् आलस्यम् इति
किन्तु नराणाम् आलस्यं तत्तु
विशेषणं नास्ति भगिनि तत्र कस्य आलस्यं दिक् आलस्यं कस्य आलस्यं सर्वेषाम् आलस्यं वा
किन्तु आलस्यम् इति विशेषणमेव अस्ति तदनन्तरं किमपि विशेष्य आवश्यकं न वाक्ये महोदय
किमर्थं
नास्ति खलु
आलस्यम् इति आलस्यम् इति खलु अथवा आलस्यम् इति एव लेजिनेस् इति एव तत्र दिक् इति
आलस्यं तदा एव भवति
अतः तत्र दिक् आलस्यम् आलस्यं
महोदय अहम् आलसान् इति लिखामि
अस्तु अस्तु हा अस्तु अलसान् अलसान् अलसः अत्र अलसः अलसः अलसान् अस्तु अत्र अलसान् अस्ति चेत् तत्र पुल्लिङ्गे प्रायशः नरान् अलसान् नरान् इति इदानीं समीचीनम् अस्ति अलसान् नरान् इति समीचीनम् अस्ति तत्र अलसः नरः अलसाः नराः द्वितीयविभक्तिरूपम् अलसान् नरान् दिक् इति इदानीम्
अन्यथा दिक् अलस्यन्
आलस्यम् आलस्यं नराणाम् आलस्यं तत्र तत्र तु लेजिनेस् इति अत्र लेजि इति अत्र विशेषणम् अत्र आलस्यम् इत्युक्ते लेजिनेस् इति तस्य भावः
दिक् आलस्यं नराणां
हा तदपि वक्तुं शक्नोति
तदेव महोदय
अस्तु समीचीनं भगिनि अन्य कोऽपि वक्तुम् इच्छति वा अस्तु अस्तु महोदय श्रीनिवास महोदय नमस्कारः वदतु महोदय
मधुरं विना भोजनं न रोचते
मधुरं विना भोजनं न रोचते हा समीचीनं हा
तेण्डुल्करेण सदृशः अन्य न क्रीडति
हा तत्र प्रायशः तत्र यदि ता कोऽपि पदं यत् सामान्यपदं नास्ति चेत् तत्र तेण्डुल्कर् महोदयेन सदृशः इति तादृश प्रयोगः सुलभं भवति महोदय अग्रे अस्तु धन्यवादः महोदय अस्तु धन्यवादः अस्तु अन्य कोऽपि वक्तुम् इच्छति चेत् वदन्तु नो चेत् अग्रे गच्छामः
अहं वदामि वा महोदय
रघुवीरनन्दमहोदय वदतु महोदय
धिक् मनः
हा अस्तु
अलं करोनायै रोदनं
कोरोना यै रोदनं तत्र किम् अलम् अलम् इति अस्ति तदनन्तरं कोरोना यै तत्र चतुर्थी इति अलम् इति अस्ति चेत् तत्र तृतीया प्रायशः भवति महोदय
चतुर्थी अपि
किन्तु तत्र पर्याप्त पर्याप्तार्थे चतुर्थी किन्तु अत्र इति किन्तु तत्र अलम् इति किन्तु तत्र तूलना अस्ति चेत् तत्र अलम् इति भवति अलमपि
चतुर्थी
तुलना एव किन्तु अत्र
भवान्
किं वक्तुम् इच्छति महोदय रघुवीरानन्द महोदय कोरोना वैरस् विषये कोरोना वैरस् इति विषये अलम् इति अथवा तस्य रोदनेन अलं रोदनेन इति तावदेव इति मन्ये महोदय
अलं करोनायै रोदनेन वा
किमर्थं रोदति इत्युक्ते तत्र तत्र कस्मै किमर्थं रोदति इति तादृश अर्थे चतुर्थी वा
कोरोनारोगाय
न अलं रोदनेन अत्र रोदनं रोगः नास्ति इति मन्ये रोदनम् इति
न कोरोनारोगाय
कोरोनारोगाय अस्तु अस्तु कोरोनारोगाय रोदनेन अस्तु अस्तु नूतनवाक्यमस्ति महोदय नूतनवाक्यमस्ति अस्तु अस्तु प्रायशः अहं न जानामि तत् प्रायशः सम्यक् एव स्यात् किन्तु अहं चिन्तयामि सम्यक् अस्ति किन्तु अन्ये कोऽपि प्रायशः तत्र अन्यत् मतं प्रायशः अस्ति तत्र अस्तु अस्तु अन्यत् वाक्यम् अस्ति महोदय
लक्ष्मणं विना सीतामपि न इच्छामि
लक्ष्मणं विना
न इच्छामि सीतामपि न इच्छामि नेच्छामि
सीतामपि न इच्छामि लक्ष्मणं विना
युद्धकाण्डे
राघवः
वदति
ओ अस्तु 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 लक्ष्मणं विना सीतां न इच्छामि नेच्छामि अस्तु महोदय धन्यवादः
इन्द्रियेभ्यः परं मनः
समीचीनं
मनसः परं बुद्धिः अलं महोदय
अस्तु महोदय धन्यवादः समीचीनम् अस्ति महोदय केवलं तत्र
उदाहरणेन
तत्र रोदनेन तत् वाक्यं सम्यक्तया न वक्तुं शक्नोमि किन्तु अन्यानि सर्वाणि समीचीनानि एव अस्तु तर्हि इदानीम् अग्रे गच्छामः धन्यवादः महोदय अस्माकं मूलविषय अद्यतनमूलविषय अस्ति हलन्तपुल्लिङ्गशब्दाः इति अत्र गीतासोपाने प्रथमभागे अजन्तशब्दानां विभक्तयः इति आसीत् इदानीं हलन्त शब्दानां विषयः अत्र अस्ति तत्र पुल्लिङ्गरूपं प्रथमतया स्वीकृतम् अस्ति अतः तत्र पेज् 8 तत्र पश्यामः तत्र कः पूर्णेन्दुमहोदय तत्र पठति वा तत्र सम्भाषणम् अस्ति तत्र रघुपतिमहोदय पूर्णेन्दुमहोदय सम्भाषणं कुर्वन्ति वा अत्र
आम् महोदय
अहम् आरम्भं करोमि एतत् सम्भाषणम् उच्चैः पठत अवगच्छत च सुधामा श्रीमन् अहं भवतः शिक्षार्थी भवितुम् इच्छामि.
अस्तु सुधामन्, किम् अध्येतुम् इच्छसि?
भगवद्गीताम् अध्येतुम् इच्छामि.
भगवद्गीतायाः एव अध्ययनं किमर्थम्?
यद्यपि अहम् एकत्र अधिकारी अपरत्र समाजसेवी अपि, अतः अहं गीताध्ययने आसक्तिमान् अस्मि.
योगिना कृष्णेन उक्तां गीतां भवान् इतः पूर्वम् अधीतवान् वा?
आम्, अन्ये केचन एतस्मिन् विषये उत्साहिनः सुहृदः मम परिचिताः सन्ति. तेषु एकः अनुभवशालिवणि, त्रयः कुशलिनः भीषजः, अन्ये च मम सहद्योगिनः अधिकारिणः.
एतादृशाः शिक्षार्थिनः निरन्तरं कक्षायाम् आगमिष्यन्ति वा?
आम्, निश्चयेन आगमिष्यन्ति. अतः मम सर्वे सुहृदः परिश्रमिणः, उत्साहिनः, गीतानुरागिणः च.
महान् सन्तोषः जातः. भवतां सर्वेषां गीताकक्षायां प्रति स्वागतम्.
अस्तु महोदय, पुनर्मिलाव.
पुनर्मिलाव.
हा, धन्यवादः.
क्षम्यतां, क्षम्यतां, मम समीपे ईमेल् मध्ये भवान् प्रेषितवती न? दट् पेज् इस्
1.4. तत्र कुत्र स्थगति?
प्रथमः स्तबकः 1.4, चतुर्थः पाठः, हलन्ति पुल्लिङ्गाः शब्दाः.
तत्र प्रथमपुटम् अस्ति वा? तत्र नास्ति वा?
1 to 10 pages is there.
अस्तु अस्तु, तावत् 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 एव. अष्टमपुट अस्ति, पेज् 8 अस्ति खलु, 8, 9, and 10 अस्ति खलु. अस्तु अस्तु, सम्भाषणम् अस्ति चेत्
वणिज् अभ्यासः 18, अभ्यासः प्रथमायां रूपाणि.
अस्तु अस्तु अस्तु, तावत् तावत् पर्यन्तं समीचीनमेव अस्ति भगिनि, तावदेव आवश्यकम् अद्य.
देन् राजन् राजा भीरुः न भवतु, लैक् देट्.
अस्तु अस्तु भगिनि, अस्तु अस्तु अस्तु.
अन्तिमं कथं जानीमः?
अस्तु भगिनि, अस्तु 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 अस्तु
वणिजः.
अस्तु भगिनि, हा अस्तु अस्तु, समीचीनम् अस्तु. इदानीं तत्र सम्भाषणं पश्यामः. अस्तु, तर्हि तत्र नूतनतया तत्र सर्वे अवगन्ति खलु तत्र सम्भाषणं? तत्र प्रायशः कोऽपि कापि समस्या नास्ति इति मन्ये, किन्तु तत्र विषयः, नूतनविषयः कः इदानीं तत्र स्थूलाक्षरैः यत् यानि पदानि लिखितानि सन्ति? किन्तु भगिनी भवती उक्तवती तत्र विषज् सर्वम् अस्ति इति. तत्र न
तेषां शब्दानां सम्भाषणमेव अस्ति खलु.
गीतासोपनस्य अद्य यत् प्रेषितं, भानुचित्रि महोदय, अस्तु, भवतः समीपे अपि नास्ति वा? अस्तु, अतः एतत् कुर्मः.
न अस्तु, अस्ति महोदय, पुस्तकमेव अस्ति. अहं ललिता भगिन्या प्रति वदामि, अधिकं नास्ति.
तत्र अधिकं किमपि नास्ति इदानीं, तत्र इदानीम् अधिकं किमपि नास्ति. इदानीं वदामि अत्र नूतनविषयः कः इत्युक्ते, तत्र नूतनानि पदानि सन्ति, सर्वाणि हलन्तपदानि. शिक्षार्थी, सुधामन्, अधिकारी, समाजसेवी. समाजसेवी इति कीदृशपदं? तत् पुल्लिङ्गपदं वा स्त्रीलिङ्गपदं वा? समाजसेवी इति
अस्ति,
अतः एव नूतनविषयः. समाजसेवी इति अस्ति, किन्तु स्त्रीलिङ्गपदं नास्ति, तद् पुल्लिङ्गपदम् अस्ति. अपि अधिकारी इति अस्ति, अधिकारी इति दृष्ट्वा वयं चिन्तयामः स्त्रीलिङ्गपदं दीर्घैकारः अस्ति, किन्तु तद् अधिकारी पुल्लिङ्गपदमेव. अपि तत्र महान् इति पदा पश्यामः, उत्साहिनः, सुहृदः, शिक्षार्थिनः इति सर्वम्, एतत् सर्वं नूतनानि पदानि, हलन्त पुल्लिङ्ग शब्दाः इति. एतदेव अस्माकं नूतनविषयः. अतः तत्र किं कुर्मः तत्र सम्भाषणं येषां पार्श्वे पुस्तकमस्ति तत्र विषयस्य परिचयः जातः तत्र अनेकानि हलन्तशब्दानि अनेकानि हलन्तपदानि सन्ति इति इदानीं ज्ञातुं शक्नुमः किन्तु अत्र चिन्तयतु तत्र सोपाने प्रथमभागे एतादृशपदानि वयं विरलतया दृष्टवन्तः खलु किन्तु अनेकानि पदानि सन्ति हलन्तपदानि एतद् एतत् सम्भाषणं दृष्ट्वा भवन्तः लघु अभ्यासम् इच्छति चेत् एतत् कर्तुं शक्नुवन्ति तत्र यत्र यत्र स्थूलक्षरैः तत्र हलन्तपदानि सन्ति तत्र अजन्तपदानि स्थापयितुं प्रयत्नं कुर्वन्तु तत्र तत्र भवतः शिक्षार्थी भवितुम् इच्छामि तत्र भवतः छात्रः भवितुम् इच्छामि इति तादृशः तादृश प्रयत्नं कुर्वन्तु किन्तु अद्य तत्र अहं करपत्रमपि एकं प्रेषितवान् तत् तत्रापि परिचयः अस्ति हलन्तशब्दानां तत् कुर्मः तदनन्तरम् अत्र आगच्छामः तत्र इदानीं तत्र यत् करपत्रं प्रेषितं तत्र पेज् कुत्र अस्ति तद् हा तत्र प्रथमस्तबकः चतुर्थपाठः इति अस्ति 1.4 सर्वे तत् अस्ति खलु अस्तु इदानीं तत्र लक्ष्मी भगिनी तत्र पठति वा तत्र प्रथमपुटे यद्यदस्ति इति लक्ष्मी भगिनी अस्तु ललिता भगिनी भवती एव पठतु अतः प्रथमपुटे
पठिष्यामि हलन्तपुल्लिङ्गाः शब्दाः अधोलिखितानि वाक्यानि पठत अधोलिखितवाक्योङ्को पठे एकवचन ऋत्विक् यजति द्विवचन ऋत्विजौ यजतः बहुवचन बहुवचनः ऋत्विजः यजन्ति
इदानीं तत् नूतनपदमस्ति ऋत्विक् ऋत्विजौ ऋत्विजः इति अग्रे
अग्रे शक्तिमान् पराक्रमं प्रदर्शयति शक्तिमन्तौ पराक्रमं प्रदर्शयतः शक्तिमन्तः पराक्रमं प्रदर्शयन्ति सुहृद् आगच्छति सुहृदौ मिलतः सुहृदः गच्छन्ति
इदानीं तत्र ऋत्विक् इति तत्र अन्यत् पदं जानीमः वा अजन्तपदं ऋत्विक् इति न अजन्तपदम् अकारान्तपदं कोऽपि अकारान्त न किन्तु अजन्तपदं कोऽपि ऋषिः यजति इति तादृश तत्र किन्तु सर्वत्र न कर्तुं शक्नुमः तत्र सुहृत् अस्ति तत्र मित्रम् इति इत्युक्ते सुहृत् इति मित्रम् आगच्छति मित्रे मिलतः मित्राणि कुत्र किं महोदय सत्यं किन्तु तत्र अजन्तपदं यत् बहु समीपम् अस्ति इति कृत्वा तत्र विशिष्टगुणम् अस्ति किन्तु अजन्तपदं तस्य समीपर्थे यदस्ति इत्युक्ते तत्र ऋषिः इति प्रायशः अस्ति अथवा मुनिः इति किन्तु ऋत्विक् इति इदानीं हलन्तपदम् अतः तत्र अस्माकम् अभ्यासः इदानीं हलन्तपदानां तत्र तेषां विभक्तिरूपाणि कीदृशानि इति एव अस्माकं विषयः तत्र यथा पूर्वमपि वयं कृतवन्तः प्रथमतया प्रथमाविभक्तिरूपाणि पश्यामः विभक्तेः रूपाणि पश्यामः हलन्त पदानां तत्र भेदः कुत्र वर्तते चेत् प्रथमाविभक्तिरूपे अपि द्वितीयाविभक्तिरूपे एव तत्र भेदः वर्तते तदनन्तरं तृतीयाविभक्ति आरभ्य तत्र सामान्यं अस्ति, अग्रे गत्वा पश्यामः तत्र सामान्यमस्ति, किन्तु प्रथमविभक्तौ द्वितीयविभक्तौ एव तत्र मनसि स्थापनीयं बहु किमपि अस्ति, तदनन्तरं तादृशः परिश्रमः न अपेक्षितम्, अतः तत्र प्रथमविभक्ति एतत् प्रायशः ओ एतत् बहु किमपि अस्ति इति चिन्तयामः, किन्तु प्रथमविभक्ति द्वितीयविभक्तिरूपं यदि तद् सम्यक्तया अवगच्छामः तदनन्तरं सुलभतया सर्वम् अन्याः विभक्तयः सुलभतया आगच्छन्ति. अस्तु, अग्रे अग्रिमपुटे तत्र रघुवीरानन्दमहोदय भवतः पार्श्वे अस्ति खलु, अस्ति खलु एतद् करपत्रम्, अग्रिमपुटे अग्रिमपुटे पठतु महोदय.
अग्रिमपुटे पठामि वा महोदय?
हा, राजा न्यायं करोति इति. हा,
राजा न्यायं करोति, राजानौ वार्तां कुरुतः, राजानः युध्यन्ते महोदय, तत्
हा युध्यन्ते, तत्र सम्यक्तया नासीत् इति नास्ति इति मन्ये, हा युध्यन्ते इति अस्ति महोदय,
राजानः युध्यन्ते, विद्यार्थी लिखति, विद्यार्थिनौ लिखतः, विद्यार्थिनः लिखन्ति, विद्वान् पूज्यः भवति, विद्वांसौ पूज्यौ भवतः, विद्वांसः पूज्याः भवन्ति, युवा धावति, युवानौ धावतः, युवानः धावन्ति.
हा, धन्यवादः महोदय. अतः अत्र हलन्तपदानां परिचयः, तत्र कीदृशहलन्तशब्दाः सन्ति इत्युक्ते इदानीम् अग्रे पश्यामः, तत्र वयं तत्र अन्तिमवर्णः हलन्तपदानाम् इत्युक्ते अन्तिमवर्णः हल् इति, हल् इत्युक्ते व्यञ्जनानि, अजन्त इत्युक्ते स्वराणि, अन्ते स्वरः अस्ति चेत् तद् अजन्तपदम्, अन्ते व्यञ्जनम् अस्ति चेत् हलन्तपदम् इति उच्यते. अत्र सर्वं तत्र नूतन स्थूलक्षरैः यानि पदानि सन्ति तानि सर्वाणि हलन्तपदानि, तत्र अन्तिमप्रातिपदिकम् इति यद् वदामः, प्रातिपदकं तस्य अन्ते व्यञ्जनम् अस्ति, अतः देवशब्दः इति तादृशः न, किन्तु अत्र भेदः अस्ति, नूतनविषयः. अस्तु, तर्हि तत्र इदानीं गीताञ्जलि भगिनी अग्रिमपुटे तत्र पठति वा तत्र रूपाणि कीदृशानि इति, वणिक् इति अस्ति.
आं महोदय, अत्र महोदय एकः प्रश्नः, विद्वान् इति प्रातिपदिकम् अन्ते किं महोदय, तकारान्त
पश्यामः भगिनि तत्र. हा, पश्यामः तत्र समीचीनः प्रश्नः, तत्र प्रातिपदिकस्य अन्ते कः वर्णः इति समीचीनः प्रश्नः अस्ति, तस्य उत्तरम् अग्रे लभ्यते. हा हा, उत्तरं समीचीनमेव, तत्र अत्र न प्रायशः तत्र अग्रिम, हा हा, अग्रिमपुटे पश्यामः भगिनि.
द्वितीयदीक्षा व्यवहार
प्रदीपः, तत् पुस्तकस्य नाम, पुस्तकस्य नाम.
अस्तु महोदय, एतानि वाक्यानि पठत, वणिक् वाणिज्यं करोति.
हा, इत्युक्ते मर्चेण्ट् इति, वणिक् इत्युक्ते मर्चेण्ट्,
वाणिज्यम् इत्युक्ते
बिस्नेस्
वाणिज्यं करोति,
ट्रेड्
ट्रेड् करोति, वणिजौ वाणिज्यं कुरुतः, वणिजः वाणिज्यं कुर्वन्ति, भिषक् औषधं ददाति, भिषजौ औषधं दत्तः, भिषजः औषधं
ददाति.
भिषक् इत्युक्ते महोदय
औषधं,
वैद्यः.
सर्वे जानन्ति इति प्रसिद्धश्लोकः अस्ति खलु तत्र दक्षिणामूर्तेः श्लोकः,
न जानामि महोदय,
विषजे भवरोगिणां गुरवे सर्वलोकानाम् इति. तत्र विषजः औषधं यः औषधं ददाति सः वैद्यः वैद्यः इति वैद्यः
सम्राट् प्रजाः पालयति सम्राजौ प्रजाः पालयतः सम्राजः प्रजाः पालयन्ति
तत्र सम्राट् इति सम्राट् इत्युक्ते महाराजा अथवा राजा इति किन्तु राजा इति महाराजः इति अकारान्तपदं राजा इति अकारान्तपदं नास्ति सम्राट् अपि हलन्तपदम् अस्ति अकारान्तपदं नास्ति टकारान्तपदमपि नास्ति किन्तु अग्रे पश्यामः कीदृशपदम् इति
किन्तु अत्र तु महोदय ककार अन्ते एक प्रथमविभक्ति वणिक् ककार द्वितीय जकार भवति भिषक् अपि ककार अन्ते भिषज्
हा समीचीनं भगिनि अतः समीचीनं भगिनि अतः वणिक् भिषक् इति समानम् इति चिन्तयतु
अपि च सम्राट् टकार अपि च जकार भवति
तत्र अपि जकार भवति किन्तु तत्र तत्र किन्तु वणिक् भिषक् एकमेव तत्र समानम् इति चिन्तयतु तदनन्तरं यद् आगच्छति तत्र धीमन् बुद्धिमान् भक्तिमान् तत् सर्वम् एकरूपम् इति चिन्तयामः अस्तु इदानीं तत्र वदतु भगिनि धीमान् इति
धीमान् आदरं प्राप्नोति धीमन्तौ आदरं प्राप्नुतः धीमन्तः आदरं प्राप्नुवन्ति
इदानीं तत्र रूपं किम् अस्ति धीमान् धीमन्तौ धीमन्तः इति अस्तु अग्रे भवन्तः हा समीचीनं भगिनि सा तादृश एव रूपम् अतः तत्र एकं रूपं तु जानीमः तत्र खलु
एकमेव महोदय
सत्यं किन्तु किन्तु वार्ता अस्ति या वार्ता अस्ति चेत् तत्र प्रथमाविभक्ति द्वितीयाविभक्तिरूपः तत्र एव किञ्चित् कश्चित् क्लेशः भवति तदनन्तरं तदनन्तरं रूपसामान्यम् अस्ति भगिनि अस्तु अग्रे तत्र नरेश् महोदय पठति वा
धन्यवादः
धन्यवादः भगिनि
बुद्धिमान् अर्थं जानाति बुद्धिमन्तौ अर्थं जानीत बुद्धिमन्तः अर्थं जानन्ति बुद्धिमान् बुद्धिमन्तौ बुद्धिमन्तः
हा इति प्रथमविभक्तिरूपं
भक्तिमान् देवम् अर्चति भक्तिमन्तौ देवम् अर्चतः भक्तिमन्तः देवम् अर्चन्ति भक्तिमान् भक्तिमन्तौ भक्तिमन्तः धनवान् गौरवं लभते धनवन्तौ गौरवं लभेते धनवन्तः गौरवं लभन्ते ज्ञानवान् कीर्तिं प्राप्नोति ज्ञानवन्तौ कीर्तिं प्राप्नुतः ज्ञानवन्तः कीर्तिं प्राप्नुवन्ति
हा इति समीचीनम् अग्रे अग्रे अपि पठितु महोदय श्रद्धावान्
श्रद्धावान् ज्ञानं लभते श्रद्धावन्तौ ज्ञानं लभेते श्रद्धावन्तः ज्ञानं लभन्ते
इति अतः तत्र बुद्धिमान् भक्तिमान् धनवान् ज्ञानवान् श्रद्धावान् तत्र वान् अथवा मान् एकवचने मन्तौ वन्तौ इति द्विवचने मन्तः अथवा वन्तः इति बहुवचने प्रथमविभक्तिरूपं सिद्धम् अस्ति अस्तु हा अग्रे श्रीनिवास महोदय पठति वा सूर्यकुमारी भगिनी नमस्कारः तत्र करपत्रं पठन् स्मः तृतीयपुटे करपत्रे तत्र ईमेल् मध्ये अटाच्मेण्ट् आसीत्
मन्त्री भाषणं करोति मन्त्रिणौ भाषणं कुरुतः मन्त्रिणः भाषणं कुर्वन्ति अत्र मन्त्री मन्त्रिणो मन्त्रिणः
इति अस्ति समीचीनं महोदय मन्त्री इति दीर्घ इकारः तदनन्तरं ह्रस्व इकारः मन्त्री तदनन्तरं मन्त्रिणौ मन्त्रिणः इति अग्रे
ध्वनिः किञ्चित् मन्दम् अस्ति कृपया किञ्चित् उच्चैः वदतु.
श्रीनिवास महोदय भवतः ध्वनिः किञ्चित् उच्चैः पठतु महोदय.
अधिकारी कार्यं निर्वहति. अधिकारिणौ कार्यं निर्वहतः. अधिकारिणः कार्यं निर्वहन्ति.
इदानीं समीचीनमस्ति महोदय ध्वनिः अपि. अग्रे
विज्ञानी अध्ययनं करोति. विज्ञानिनौ अध्ययनं कुरुतः. विज्ञानिनः अध्ययनं कुर्वन्ति. योगी तपः आचरति. योगिनौ तपः आचरतः. योगिनः तपः आचरन्ति.
समीचीनं महोदय. इदानीं तत्र रूपसामान्यमस्ति खलु महोदय, तत्र मन्त्री अधिकारी विज्ञानी योगी इति तयोः मध्ये, तेषां मध्ये खलु तत्र मन्त्री मन्त्रिणौ मन्त्रिणः, अधिकारी अधिकारिणौ अधिकारिणः इति, विज्ञानी विज्ञानिनौ विज्ञानिनः, या योगी योगिनौ योगिनः इति, तदपि एकः एव समूहः इति चिन्तयितुं शक्नुमः खलु तत्र. किन्तु अन्तिमं तत् एकवारं पठतु महोदय, पुमान् इति.
पुमान् पृच्छति. पुमांसौ पृच्छतः. पुमांसः पृच्छन्ति.
तत्र पुरुषः इति. तत्र पुमान् पृच्छति, पुमांसौ पृच्छतः, पुमांसः पृच्छन्ति. एतादृशरूपं पूर्वं दृष्टं वा वयं तत्र चित्रे, यानि रूपाणि आसन् तत्र मध्ये तादृशरूपम् अस्ति वा, पुमान् इव अन्यत् कोऽपि पदमस्ति वा, कोऽपि वदति वा?
विद्वान्.
विद्वान् विद्वान् विद्वांसौ विद्वांसः, पुमान् पुमांसौ पुमांसः इति. समीचीनम्. अतः तत्र ते अपि एकः तत्र एकस्मिन् समूहे सन्ति इति चिन्तयितुं शक्नुमः. अस्तु, इदानीम् अग्रिमपुटे गीताञ्जलि भगिन्याः प्रश्नस्य उत्तरं प्राप्नुमः. पुमान् इत्युक्ते पुरुषः इति. पुरुषः पुरुषः पुल्लिङ्ग पुल्लिङ्ग इति पुमान्. पुरुषः पृच्छति इति, अतः पुंसि इति वदामः. पुंसि पुल्लिङ्गे इति पुंसि इति रूपमपि भवति. अस्तु, इदानीम् अग्रिमे पुटे तत्र इदानीं तत्र लक्ष्मी भगिनी अस्ति वा? भगिनी न श्रूयते. सूर्यकुमारी भगिनी किञ्चित् उच्चैः प्रातिपदिकम् इदानीम् आगच्छति भगिनि, इदानीम् आगच्छति. इदानीम् आगच्छति अग्रिमपुटे, अग्रिमपुटे आगच्छति. अग्रिमपुटे तत्र लक्ष्मी भगिनी अस्ति वा? अस्तु, प्रायशः नास्ति इति मन्ये. अस्तु, पूर्णेन्दु महोदय अग्रिमपुटे पठति वा महोदय तत्र.
एक द्वि बहु इत्युक्ते एकवचन द्विवचन बहुवचन प्रातिपदिकमस्ति. बणिज् बणिज् बणिजौ बणिजः. सम्राज् सम्राट् सम्राजौ सम्राजः. धीमत् धीमान् धीमन्तौ धीमन्तः. महत् महान् महान्तौ महान्तः. सुहृत् सुहृद् सुहृदौ सुहृदः. राजन् राजा राजानौ राजानः. आत्मन् आत्मा आत्मानौ आत्मानः. मन्त्रिन् मन्त्री मन्त्रिणौ मन्त्रिणः. गुणिन् गुणी गुणिनौ गुणिनः. विद्वस् विद्वान् विद्वांसौ विद्वांसः.
धन्यवादः महोदय. इदानीं प्रश्नः, गीताञ्जलि भगिन्याः प्रश्नः, तत्र रूपाणि दृष्ट्वा कथं निर्णेतुं शक्नुमः प्रातिपदिकस्य अन्तिमवर्णः कः इति. हलन्तपदम् इति जानीमः. तत्र वणिक् इति दृष्ट्वा वणिज् इति प्रातिपदिकम् इति निर्णेतुं शक्नुमः वा? न खलु तत्र वणिकिति दृष्ट्वा ककारः अन्ते अस्ति इति चिन्तयामः जकारः अन्ते इति तत्र तादृशज्ञानं न भवति सम्राट् इति तत्र टकारान्तपदं नास्ति प्रातिपदिकं जकारान्तपदम् अस्ति धीमान् इति दृष्ट्वा नकारान्त अस्ति इति चिन्तयामः किन्तु धीमत् इति अस्ति प्रातिपदिकम् अतः कस्य वचनस्य रूपेण अन्तिमवर्णः सुलभतया निर्णेतुं शक्नुमः द्वितीय अथवा द्विवचनरूपम् अथवा बहुवचनरूपेण तत्र वणिजः वणिज् सम्राजः सम्राज् धीमन्तः तकारान्तपदं महान्तः तकारान्तपदं सुहृदः दकारान्तपदं राजानः नकारान्तपदम् आत्मानः नकारान्तपदं मन्त्रिणः तत्र णकारः अस्ति किन्तु तत्र रेपः अस्ति इति कृत्वा तत्र मन्त्रिन् इति भवति तदनन्तरं गुणिनः नकारान्तपदं विद्वांसः सकारान्त अन्ते अस्ति अतः विद्वसकारान्तपदम् इति अतः तत्र कीदृशपदान् पदानां विषयः अस्ति अद्यतन तत्र हलन्तपदं किन्तु तेषां तत्र तकारान्तपदमस्ति धकारान्तपदमस्ति नकारान्तपदमस्ति सकारान्तपदमस्ति अपि झकारान्तपदमस्ति तत्र गीतासोपाने तत्र एतत् सर्वम् अस्ति इति मन्ये तत्र हा नकारान्त दकारान्त चकारान्त झकारान्त तकारान्त सर्वं तत्र अत्रापि अस्ति अतः तत्र अत्र अधिकम् अस्ति इति मा चिन्तयतु तत्र सर्वं तादृशमेव अस्ति किन्तु गीतासोपाने स्त्रीलिङ्गपदमपि दत्तानि सन्ति अत्र केवलं पुल्लिङ्गशब्दाः एव सन्ति अत्र किन्तु गीतासोपाने स्त्रीलिङ्गपदानि अपि दत्तानि सन्ति किन्तु प्रथमतया पुल्लिङ्गरूपाणि तस्य अभ्यासं कुर्मः तेषां पुल्लिङ्गरूपाणि तेषाम् अभ्यासं कुर्मः अस्तु इदानीं तत्र अग्रिमपुटे रूपं दृष्ट्वा एतद् यत् कोष्टकम् अस्ति अस्मिन् पुटे तत्र एकवारं तत्र पश्यामः तत्र जकारान्त अस्ति चेत् कीदृशरूपं भवति इति तत्र अहं तत्र वणिज् इति अस्ति तत्र वणिज् इति स्थाने अन्यत् किमपि योजयामः तत्र वणिज् इति स्थाने तत्र किं वयं दृष्टवन्तः पूर्वस्मिन् पुटे आसीत् खलु चकारान्तपदं तत्र हा बिषज् हा इदानीं तत्र बिषज् इति अस्ति प्रातिपदिकं तस्य रूपं किम् इति वदन्तु सर्वे वदन्तु तत्र बिषज् बिषजः इति अस्तु तत्र धीमत् इति अस्ति तत्र तकारान्तपदं तत्र बुद्धिमत् इति हा बुद्धिमत् बुद्धिमत् इति रूपं तस्य रूपं किं भवति धीमत् इति धीमान् धीमन्तौ धीमन्तः
बुद्धिमन्तः
इति भवति समीचीनं हा भवत् शब्दवत् हा समीचीनम् अपि तत्र राजन् इति नकारान्तपदम् आसीत् तत्र
राज्ञः
राजानः इति अस्ति तदनन्तरं तत्र आत्मन् इति अस्ति तत्र योगी इति चिन्त्य योगी इति स्वीकुर्मः तत्र आत्मा विशेषः अस्ति तत्र योगी इति तत् गुणिप्रायश गुणिवत् भवति इति मन्ये योगी योगिन् इति नकारान्तपदं योगिनौ योगिनौ योगिनः इति
योगिन
हा अपि तत्र वयं दृष्टवन्तः तत्र
एकवचन योगिनः
न योगी योगी इति दीर्घैकारः योगी योगिनौ योगिनः एकवचने दीर्घैकारः तदनन्तरं ह्रस्वैकारः योगी योगिनौ योगिनः हा सत्यं महोदय हा अकारस्य दीर्घः अस्ति तत्र अकार तत्र विषजः इति स्थाने तत्र नास्ति खलु तत्र विषज
नकारस्य एव
सत्यं महोदय अपि तत्र एतद् दृष्टवन्तः तत्र विद्वांस् विद्वस् इति तत्र विद्वान् विद्वांसौ विद्वांसः इति अस्ति, तत्र पुमान् पुमांसौ पुमांसः इति अस्ति, अतः प्रातिपदिकं किम् अस्ति?
पुमस्
तत्र तत्र सकारान्तपदं विद्वस् इति अस्ति, विद्वस् इति अस्ति, तत्र पुमस् पुमान्
पुमस्
इति अस्ति दत्तमस्ति वाचस्पत्यम्
अस्तु, अग्रे पश्यामः अग्रे पश्यामः पुंस अथवा पुमस् किन्तु तत्र सकारान्तपदं किन्तु सकारान्तपदम् इति चिन्तयामः। अस्तु, इदानीं तत्र कोष्टकस्य केचन अंशाः प्रायशः अस्मिन् मनसि स्थापिताः इति मन्ये, इदानीम् अग्रिमे पुटे यदस्ति तत् कर्तुं शक्नुमः इति मन्ये, पश्यामः तत्र। रघुपतिमहोदय अग्रिमे पुटे तत्र आरम्भं करोति वा?
आं महोदय,
मरुत् इति दत्तमस्ति, मरुत् इति तत्र तकारान्तपदं,
मरुत् मरुत् अस्ति तकारान्तपदमस्ति, मरुत् मरुत् मरुतौ मरुतः इति, इदानीं धीमन्तौ इति अस्ति
तत्र तकारान्तपदं
धीमत् इति, धीमत् पदं धीमान् धीमन्तौ धीमन्तः।
समीचीनं महोदय, अतः तत्र मरुत् शब्दभेदः अस्ति धीमान् शब्द धीमत्, तत्र अतः तत्र मरुत् इति एकं शब्दमस्ति, तत्र एकवचने तस्य रूपमस्ति मरुत् एव, धीमत् इति शब्दस्य एकवचनरूपम् अस्ति धीमान् इति, अतः तत्र
अस्ति परन्तु न भवति,
अतः तत्र तकारान्तपदस्य रूपद्वयम् अस्ति इति चिन्तनम्।
परन्तु अत्र उत् अस्ति खलु, अतः एव चिन्तयामि, तत्र सर्वत्र बुद्धिमत् भवत् इति तत्र
न न महोदय, तत्रापि तत्रापि बुद्धिमान् एव प्रथमाविभक्तिरूपम् अस्ति खलु,
अस्ति खलु बुद्धिमत् अस्ति, अत्र प्रातिपदिकम् उत् अस्ति खलु मरुत् अस्ति, अतः
उपधायाम् अकारः नास्ति, सत्यं सत्यं महोदय,
चिन्तयामि।
तत्र शत्रन्त धीमान् बुद्धिमान् ख तत्र यस्य यस्य बुद्धिः अस्ति सः बुद्धिमान् इति, तत् भवति मत् इति, मत् इति प्रत्ययः आगच्छति, धनवान् इति बुद्धिमान् इति, यस्य धनम् अस्ति सः धनवान्, यस्य बुद्धिः अस्ति सः बुद्धिमान् इति, इति तादृश यस्य इति तादृशरूप इति भवति। अग्रे महोदय, तत्र धनवन्तः इति तत्र किं भवति द्वितीयं?
धनवान्
धनवान्
धनवान् धनवन्तौ धनवन्तः
इति समीचीनं भवति। तृतीयमपि तत् करोतु,
महान् 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 अस्तु, महान् महान् महान्तौ महान्तः इति अत्र अपि
भवान् शब्दवत् एव अस्ति, महान् महान्तौ महान्तः इति तावदेव, समीचीनं महोदय। अस्तु, धन्यवादः। अग्रे ललिता भगिनी, अग्रे इदानीं बिषजौ इति अस्ति, बिषजौ इति तत्र कीदृशपदं, प्रातिपदिकं किं? बिषज्
बिषज्
बिषज् किन्तु एकवचने रूपं किं भवति? बिषक् बिषजौ बिषजः, समीचीनं भगिनी। अग्रे
अग्रे बुद्धिमान् बुद्धिमन्तौ बुद्धिमन्तः,
समीचीनं। राजा
बुद्धिमान् प्रातिपदिकं
बुद्धिमत् बुद्धिमत् तकारान्तपदं, धीमत् इति धीमान् भवति, बुद्धिमत् इति बुद्धिमान् भवति।
राजा राजानौ राजानः,
तत्र कीदृशपदं राजा?
राजन्
नकारान्तपदं, बहुवचनरूपं दृष्ट्वा राजानः इति अस्ति, नकारः अस्ति अन्ते, अतः राजन् इति नकारान्तपदम् इति जानीमः, समीचीनं भगिनी। अग्रे
अधिकारी अधिकारिणौ अधिकारिणः,
हा तत्र कीदृशपदम्
अधिकारी अधिकारी प्रातिपदिकं
न न न अन्ते बहुवचनरूपे किम् अस्ति अधिका
बहुवचनः
अन्ते
अधिकारिन्
नकारान्त अन्ते अस्ति अधिकारिन् नकारान्तपदं नकारान्तपदं समीचीनं भगिनि अधिकारिन् इति प्रातिपदिकं हा समीचीनम् अग्रे सुहृत्
सुहृदौ
दकारान्तपदं सुहृद् इति दकारान्तपदं समीचीनं भगिनि समीचीनं हा अस्तु अग्रे सूर्यकुमारी भगिनी वक्तुम् इच्छति वा अग्रे कीदृशपदं साम्राज्यः कीदृशपदम् अस्ति प्रातिपदिकं
सम्राट्
तत्र न न पश्यतु इदानीमेव वयं चिन्तितवन्तः तत्र प्रातिपदिकं तस्य अन्ते का प्रातिपदिकस्य अन्तिमवर्णः कः इति प्रश्ने सति किं कुर्मः तत्र बहुवचनरूपस्य अन्तिमवर्णः पश्यामः अन्तिमवर्णं पश्यामः सम्राजः इति अस्ति अन्तिमवर्णः कः जकारः अतः जकारान्तप्रातिपदिकं तत्र सम्राज् इति
खलु महोदय यत्र बिषक् अस्ति यत्र बिषज् आसीत् तत्र बिषक् अस्ति प्रथमविभक्तौ जकारान्त यद्यपि जकारान्त अस्ति परन्तु
अतः सः महोदय न न अतः महोदय तत्र बहुवचनरूपं दृष्ट्वा वक्तव्यमस्ति महोदय एकवचनरूपे भ्रमः भवति बहुवचनरूपं दृष्ट्वा यत् बहुवचने अस्ति तदेव अन्तिम प्रातिपदिकस्य अन्तिमवर्णः इति हा तत् सुलभं भवति नो चेत् बिषक् इति दृष्ट्वा तत्र जकारान्त अन्ते न भवति महोदय सत्यं सूर्यकुमारी भगिनी अग्रे विद्वांसौ इति विद्वस् इति सकारान्तपदम् इति प्रातिपदिकं विद्वस् इति प्रातिपदिकं हा समीचीनं भगिनि अग्रे
इति बहुवचनं महोदय
हा विद्वांसः विद्वांसः इति विद्वान् विद्वांसौ विद्वांसः सकारः अन्ते अस्ति अतः सकारान्तप्रातिपदिकं विद्वस् इति प्रातिपदिकम् अस्ति विद्वस् इति अन्ते आगच्छति हा इदानीम् अग्रे हनुमान्
हनुमत् हनुमान् हनुमन्तौ हनुमन्तः
हा तत्र तकारान्तपदं हनुमत् इति समीचीनं भगिनि हा अग्रे अपि
बलिनः बलिन् प्रातिपदिकं
तत्र गुणिशब्दवत् प्रायशः अस्ति भगिनि तत्र
बलि बलिनौ बलिनः
हा तावदेव भगिनि हा समीचीनं धन्यवादः श्रीनिवास महोदय अग्रे वक्तुम् इच्छति वा
आं महोदय भवन्तौ इति वचनमस्ति भवान् भवन्तौ भवन्तः
भवन्तः भवत् शब्दः तकारान्तपदं तकारान्तपदं समीचीनं भवन्तः तत्र अन्ते तकारः अस्ति अतः प्रातिपदिके अपि तकारः अन्ते अस्ति इति निर्णेतुं शक्नुमः समीचीनं महोदय अग्रे पुमान् पुमान् इति पुमांसः इति तत्र सकारान्तपदम् इति जानीमः तत्र विद्वांसः यत् आसीत् तादृश एव अस्तु अग्रे गतिमान् इति इति प्रातिपदिकं समीचीनं महोदय गतिमन्तः समीचीनं महोदय अग्रे
विद्यार्थिन् इति प्रातिपदिकं विद्यार्थिन् विद्यार्थिनौ
एकवचने पुनः महोदय एकवचने रूपं किं
विद्यार्थी
विद्यार्थी
विद्यार्थी विद्यार्थिनौ विद्यार्थिनः
हा अन्तिमम्
आत्मा आत्मानौ आत्मानः
इति प्रातिपदिकं हा नकारान्त प्रातिपदिकं समीचीनं समीचीनं महोदय हा अस्तु अतः तत्र हलन्तपुल्लिङ्गशब्दानां परिचयः अत्र भवति केवलं पुल्लिङ्गपदानां तत्र गीतासोपने सर्वं मिश्रितमस्ति इति कृत्वा अत्र केवलं पुल्लिङ्गरूपाणां तत्र प्रथमतया कुर्मः इति चिन्तनम् आसीत् तत्र नपुंसकलिङ्गे किञ्चित् क्लेशः अस्ति अतः एतत् प्रथमतया कुर्मः इति चिन्तनम् इदानीं तत्र वदतु भगिनि
सकारान्तविशेषः अनुस्वारः भवति
सत्यं भगिनि सत्यं हा सत्यं विद्वांसः इति सत्यं हा समीचीनं भगिनि समीचीनम् अतः तत्र बहुवचने यदि अनुस्वारः अस्ति चेत् तत्र प्रायशः तत् सकारान्तपदम् इति अपि तदनन्तरं प्रायशः सकारः एव अस्ति इति मन्ये हा अन्यत्र नास्ति सत्यं भगिनि तत् प्रायशः
बहुवचने अनुस्वारः
अनुस्वारः अस्ति सत्यं भगिनि हा समीचीनं हा अस्तु अग्रे एतावत् हा रघुवीरानन्दमहोदय इदानीम् अग्रिमे पुटे गच्छामः तत्र पठति वा महोदय
महोदय रिक्तस्थाने यथोचितं रूपं लिखत उदाहरणार्थं महान्तः पूज्याः सन्ति
तत्र केवलं यत् रूपं समीचीनम् अस्ति तत्र एकवचने द्विवचने वचनं दृष्ट्वा वक्तुं कर्तुं
शक्य तिङन्तपदं वचनं
क्रियापदस्य पदं दृष्ट्वा जानीमः
सम्यक् पठति
बुद्धिमान्
सम्यक् पठति
बुद्धिमान् सम्यक् पठति समीचीनं महोदय अग्रे
अग्रे प्रयोगं कुरुतः कुरुतः द्विवचनं महोदय अतः विज्ञानिनौ
समीचीनं महोदय अग्रिममपि करोतु
अग्रिमं वाणिज्यं कुरुतः वणिजौ वाणिज्यं कुरुतः
हा समीचीनं महोदय तत्र वणिजा इति अस्ति तत्तु अत्र नास्ति हा तत् तृतीया प्रायशः भवति अस्तु धन्यवादः महोदय हा अग्रे गीताञ्जलि भगिनि
वदति इत्युक्ते एकवचनरूपं पुमान् वदति
हा पुमान् वदति समीचीनं भगिनि अग्रे
साहाय्यं करोति अपि एकवचने सुहृत् करोति
हा तत्र तत्र क्लेशः भवति खलु यदि वयं पश्यामः सुहृदः इति देवशब्दवत् अकारान्तपदम् इति चिन्तनं भवति किन्तु सुहृदः इति बहुवचने अस्ति अतः तत्र हलन्तपदानां अभ्यासं सर्वं गीतासोपनस्य द्वितीयभागे एव अस्ति तत्र वणिजः सम्राजः धीमन्तः सुहृदः इति पश्यामश्चेत् किं भवति ओ एतत् एकवचने अस्ति अकारान्तपदम् अस्ति इति चिन्तयामः किन्तु तादृशः नास्ति अग्रे भगिनि
गौरवं लभन्ते बहुवचन अस्ति धनवन्तः गौरवं लभन्ते
हा समीचीनं भगिनि अग्रिमम्
अस्ति अस्ति एकवचनं सम्राट् अस्ति
सम्राट् अस्ति समीचीनं भगिनि हा धन्यवादः लक्ष्मी भगिनी पठितुम् इच्छति वा नास्ति वा अस्तु ललिता भगिनी अग्रे
विद्वा
अस्ति अस्ति कृतम् इदानीम् अष्टम सर्वत्र पूज्यते
सर्वत्र पूज्यते विदुषः सर्वत्र
पूज्यते इति वचनं किं
हा हा पूज्यते एकवचनम्
एकवचनं हा अतः
एकवचनं विद्वान् सर्वत्र पूज्यते.
हा विद्वान्, यदि विद्वांसः अस्ति चेत् किं भवति तत्र?
विद्वांसः पूज्यन्ते सर्वत्र.
समीचीनं भगिनी, विद्वांसः सर्वत्र पूज्यन्ते.
सर्वं जानीतः बुद्धिमान्.
जानीतः इति पदस्य वचनं किम्?
बुद्धिमन्तौ सर्वं जानीतः.
समीचीनं भगिनि.
जलधिं तरति एकवचन. हनुमान् जलधिं तरति.
हा हनुमान् जलधिं तरति. समीचीनं भगिनि.
समालोचनं कुरुतः. कुरुतः इस् अगेन् द्विवचन. सो मन्त्रिणौ समालोचनं कुरुतः.
हा समीचीनं भगिनि. अग्रिमं
गर्वं प्रदर्शयन्ति. प्रदर्शयन्ति बहुवचनशब्द. सो धनिनः गर्वं प्रदर्शयन्ति.
समीचीनं भगिनि. हा धन्यवादः. पूर्णेन्दु मोदी अग्रे. धन्यवादः भगिनि. पूर्णेन्दु मोदी अग्रे.
आं महोदय. शासनं कुर्वन्ति. कुर्वन्ति इति बहुवचने अस्ति. अतः सम्राजः शासनं कुर्वन्ति.
हा सम्राजः शासनं कुर्वन्ति. समीचीनं महोदय. हा अग्रे.
लोककल्याणं कुरुतः. कुरुतः द्विवचने अस्ति. अतः योगिनौ लोककल्याणं कुरुतः.
अग्रे.
यागं करोति. करोति इति एकवचने अस्ति. अतः एकवचनरूप अस्ति ऋत्विजः. ऋत्विक् ऋत्विक् यागं करोति.
हा इति समीचीनं महोदय. हा अग्रे.
सम्मानं प्राप्नुवन्ति. प्राप्नुवन्ति बहुवचने अस्ति. अतः गुणिनः. गुणिनः सम्मानं प्राप्नुवन्ति.
अग्रे.
अग्रे अवगुणं न प्रकाशयतः. प्रकाशयतः द्विवचने अस्ति. अतः अत्र न दृश्यते. मतिमन्तौ.
हा मतिमन्तौ इति अस्ति. स सत्यं महोदय. क्षम्यतां, तत्र मतिमान् मतिमन्तः मतिमन्तौ इति द्विवचने.
मतिमन्तौ अवगुणं न प्रकाशयतः.
हा समीचीनम्.
अनन्तरं निरताः. निरताः इत्युक्ते बहुवचने अस्ति महोदय.
हा विशेषणम् अस्ति तत्र. तत् क्रियापदं नास्ति. निरताः निरतः इति तत्र निरतः इमर्स्ड् मग्नः. मग्नः इति अर्थे. धीमन्तः चर्चायां
निरताः.
निरताः सन्ति.
गृध्यति. एतत्तु एकवचनरूप इति मन्ये. अर्थं न जानामि महोदय.
तत् लोभी इति अस्ति. हा लोभी इति अस्ति. लोभी परद्रव्येषु
गृध्यति.
गृध्यति तत्र ईर्ष्या. तत्र तस्य तद् इच्छति इति प्रायशः. तस्य इच्छा अस्ति इति प्रायशः अस्ति इति मन्ये भगिनि महोदय. परद्रव्येषु गृध्यति इति अहमपि सम्यक् न जानामि, किन्तु केवलं केवल ऊहा. अस्तु तर्हि इदानीं तत्र अपि समयः इदानीमपि अस्ति तत्र. हा केवलं
गृध्यति किम् अर्थं?
हा न जानामि भगिनि. कोऽपि दृष्ट्वा वदतु तत्र स्पोकन् संस्कृत् मध्ये. हा धन्यवादः. अस्तु अग्रे रघुपतिमहोदय अग्रे पठति वा?
आम् आं महोदय. एकनिमिषं गृध्यति. एकनिमिषम् अग्रिमम्. अस्तु राजन्. अस्तु राजन्. राजा भीरुः न भवतु. तपस्विन् तपस्विनौ पुण्यम् अपेक्ष्येते इति द्विवचने अस्ति.
इदानीं तत्र किम् अस्ति महोदय? तत्र प्रातिपदिकं दत्तम् अस्ति.
नकारान्तः.
केवलं तत्र एकवचनरूपं वा द्विवचनरूपं वा बहुवचनरूपं वा इति दृष्ट्वा वक्तव्यं तावदेव.
दिविषद् दकारान्त अस्ति. अतः दिविषदः इति भवन्ति इति बहुवचने. मर्त्यलोके न भवन्ति. अपशब्दं न वदति इदानीं वदति इति एकवचने प्रथम एकवचने अस्ति अतः गुणी अपशब्दं न वदति
हा इति समीचीनं भवति
अग्रिमं जहाति इति तदपि एकवचने अस्ति प्रथमवृषे एकवचने अस्ति अतः शक्तिमान्तकारान्त शक्तिमान् धैर्यं न जहाति
शक्तिमान् धैर्यं न जहाति न त्यजति इति अर्थे न जहाति इति समीचीनं महोदय अग्रे
प्रदर्शयति एकवचने अस्ति अतः कोपं न प्रदर्शयति योगी कोपं न प्रदर्शयति
प्रदर्शयति
नकारान्त योगिन् शब्दः
योगिन् शब्दः अग्रे महोदय
अग्रिमं विनश्यति एकवचने अस्ति न विनश्यति आत्मन् प्रातिपदिकस्य प्रथमाविभक्तौ एकवचने अस्ति आत्मा न विनश्यति
इति समीचीनं महोदय धन्यवादः गीताञ्जलि भगिनी अग्रे
सम्राज् भवेत् भवेत् अपि एकवचन सम्राट् व्यसनी न भवेत्
दुःखी 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 न भवेत् इति प्रायशः
व्यसनी न भवेत् अस्तु पुंस् सकार
ओ अत्र अत्र दत्तमस्ति पुंस् इति अस्तु
कृपणः न भवेत् अपि एक वचन पुंस् इति
विद्वांस् विद्वान् इति दृष्टवन्तः खलु पुमान्
पुमान् पुमान् पुमान् कृपणः न भवेत्
हा समीचीनं भगिनि हा अग्रे
माया विन् नकारान्त अपि च भवति एकवचने माया मायावी ईकार दीर्घ ई महोदय
मायावी सत्यं भगिनि
विश्वसनीयः न भवति
मायावी गुणी गुणिनौ गुणिनः मायावी मायाविनौ मायाविनः इति मायावी विश्वसनीयः न भवति विश्वसनीय क्षम्यतां विश्वसनीय तस्मिन् विश्वासः न करणीयम् इति न कुर्वन्ति तस्मिन् न न नास्ति मायावी विश्वास योगी न भवति इति
सर्वे
जानन्ति 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 सत्यं सत्यं
सर्वे
तादृशे वयं विश्वासं कुर्मः खलु सत्यं भगिनि अग्रे
ऋत्विज् जकारान्त कुरुतः कुरुतः इति तु द्विवचने ऋत्विजौ
न एकवचने ऋत्विक् इति अस्ति रूपम्
एकवचने किन्तु अत्र कुरुतः
न सत्यं भगिनि किन्तु भवती ऋत्विज् इति उक्तवती अतः अहं चिन्तितवान् प्रायशः एकवचनरूपम् इति न अस्तु अस्तु
ऋत्विक् ऋत्विजौ ऋत्विजन्तः
ऋत्विजः
ऋत्विजः क्षम्यतां ऋत्विजः अत्र तु ऋत्विजौ देवनिन्दनं न कुरुतः
देवनिन्दनं न कुरुतः समीचीनं भगिनि अग्रे नरेश महोदय
द्विवचनम् अस्ति धीमान् धीमन्तौ धीमन्तः धीमन्तौ आलस्यं न प्रदर्शयतः महात्मन् विचलतः द्विवचनमस्ति
महात्मानौ महात्मानः
महात्मानौ विपदि न विचलतः त्यजन्ति बहुवचन अस्ति सुहृदौ सुहृदः सुहृदः न त्यजन्ति.
हा अपद्गतं न त्यजन्ति. समीचीनं महोदय. अग्रे
अश्वारोहि सञ्चरतः द्विवचनम् अश्वारोहि अश्वारोहिणौ अश्वारोहिणः द्विवचनम् अश्वारोहिणौ आकाशे सञ्चरतः.
हा समीचीनं महोदय. अग्रिममपि करोतु, तदनन्तरम् अन्यकोपि करोति.
जलन् जलन् युद्धतः द्विवचनमस्ति. बलिनौ बलिनः बलिनौ योद्धारौ युध्यतः.
हा बलिनौ योद्धारौ युध्यतः. तत्र बलिनौ इति विशेषणं भवति योद्धारौ इति पदस्य. बलिनौ योद्धारौ युध्यतः इति. समीचीनं महोदय. हा समीचीनं. हा अग्रे श्रीनिवास महोदय.
श्रीमत् तात्कालिकं नाम भिक्षां न याचन्ते. याचन्ते इति बहुवचने अस्ति. श्रीमान् श्रीमन्तौ श्रीमन्तः इति. श्रीमन्तौ भिक्षां न याचन्ते.
न न श्रीमन्तः इति खलु.
श्रीमन्तः भिक्षां न याचन्ते.
श्रीमन्तः भिक्षां न याचन्ते. समीचीनं महोदय.
बहुवचने अस्ति. विषजः रुग्णान् न उपेक्षन्ते.
विषजः रुग्णान् न उपेक्षन्ते. रुग्णः इत्युक्ते यस्य रोगः अस्ति सः रुग्णः पेशेण्ट् इति.
राजन् इति राजा राजानं राजानं दण्डयन्ति इति
बहुवचने. अतः रूपं भवति
राजा राजानौ राजान.
अतः वाक्यं महोदय राजानः
राजानः सज्जनान् न दण्डयन्ति.
न दण्डयन्ति. समीचीनं महोदय. अन्तिमम् अग्रे करोतु. मतिमत्
इति मतिमत् इति प्रातिपदिकं मतिमान्.
हा मतिमान् इति एकवचने. मतिमान् मतिमान् मतिमन्तः.
तत्र बहुवचने अस्ति. प्रवर्तन्ते मतिमन्तः
अकार्ये
कार्ये न प्रवर्तन्ते.
यत् कार्यं न करणीयं तस्मिन् न प्रवर्तन्ते. मतिमन्तः अकार्ये न प्रवर्तन्ते. समीचीनं महोदय. अग्रिमं तत्र तत्र भवानेव तत्र सर्वं करोतु महोदय. तत्र
विवेकिन् इति प्रातिपदिकमस्ति. विवेकी विवेकिनः इति कुर्वन्ति इति बहुवचने अस्ति. विवेकिनः सहसा क्रियां न कुर्वन्ति.
हा सहसा क्रियां न कुर्वन्ति. समीचीनं महोदय. विवेकिनः
त्यजन्ति इति बहुवचने अस्ति. शीलवन्तः सदाचारं न त्यजन्ति.
हा शीलवन्तः सदाचारं न त्यजन्ति. हा अग्रे महोदय. आततायिन्
प्रदर्शयन्ति इति बहुवचने अस्ति. आततायिनः दयां न प्रदर्शयन्ति.
हा समीचीनं महोदय. हा तत्र आततायी इत्युक्ते किम् इति न जानामि, किन्तु तत्र दयां न प्रदर्शयन्ति इति. अस्तु
इत्युक्ते टेररिस्ट् महोदय.
अस्तु तीव्रवादी इति
उग्रवादी.
उग्रवादी अस्तु.
उग्रवादिन्
उग्रवादिन् सत्यं वा? तदपि हलन्तशब्दः. अस्तु. हा इदानीं तत्र अग्रिमपुटे प्रश्नः एकः
अश्वारोहिन् आकाशे न सञ्चरतः प्रातिपदिकम् अश्वारोहि
न न प्रातिपदिकमेव दत्तमस्ति भगिनि तत्र अश्वारोहिन् इति
एकवचन
न न सञ्चरतः सञ्चरतः इति अस्ति तत्र द्विवचनरूपम् अपेक्षितमस्ति किन्तु
अश्वारोहिणौ
सत्यम् एकवचने अश्वारोही अश्वारोही दीर्घैकार दीर्घैकार सत्यं भगिनि
मतिमान्
सत्यं सत्यं मतिमन्तः भवान्
शब्दवत्
हनुमान् शब्दवत् अथवा
महोदय
वदतु महोदय
कुतः पठति महोदय पूर्वं यत् प्रेषितं तथैव मां
तत्रैव स्मः महोदय तत्र पेज् 55 मध्ये इदानीं समापितम् अस्ति तत्र करपत्रे एव स्मः इदानीं तत्र अभ्यासः 20 यत् अस्ति शीर्षकं तत् कृतवन्तः इदानीम् अग्रिमे पुटे गच्छामः पेज् 56 इति अस्ति तत्र प्रिण्टेड् पेज् यत् मुद्रणे अस्ति पेज् 56 प्राप्तं वा महोदय अस्तु समीचीनम् अस्तु इदानीं सूर्यकुमारी भगिनी अग्रिमे पुटे पठति वा तत्र
विवरणम् अन्तिमं कथं जानीमः व्यञ्जनान्तानां बहुवचने यत् अन्तिमं व्यञ्जनं दृश्यते तदन्तः एव सः शब्दः भवति इत्यत्र अन्तिमं व्यञ्जनं भवति व्यञ्जनं भवति जकारः अतः एषः
तत्र वणिजः इति अस्ति वणिजः इत्यत्र अन्तिमव्यञ्जनं भवति जकारः अतः एषः जकारान्तः अस्तु अग्रे धीमन्तः इत्यत्र प्रिण्टेड् पेज् नम्बर् अस्ति 56 भगिनि अभ्यासः 20 तदनन्तरम् अभ्यासः 20 यदस्ति तद् तस्य अग्रिमपुटं
ओके धीमन्तः इत्यत्र अन्तिम व्यञ्जनं
भवति तकारान्तः इति समीचीनं भगिनि एवं
ऋत्विक् विशक् साम्राट् इत्यादयः जकारान्ताः
जकारान्तः बहुवचनस्य अन्तिमव्यञ्जनं जकारः अस्ति अपि धीमा
अतः बहुवचनस्य अन्तिमं व्यञ्जनं जकारः अस्ति धीमान् बुद्धिमान् धनवान् इत्यादयः तकारान्तः
तकारान्ताः सन्ति सन्ति अग्रे राजा
आत्मा मन्त्री योगी इत्यादयः नकारान्ताः
सन्ति अग्रे विद्वान्
इत्येषु तकारान्तः
इत्येषः
तदेव
इति एषः सकारान्तः विद्वान् इति एषः सकारान्तः पुमान् अपि तथैव तथैव इत्युक्ते
पुमान्
शब्दः अपि सकारान्तपदम् इति समीचीनं भगिनि
शब्दानां रूपज्ञानाय अन्तिमवर्णस्य ज्ञानं परमम् आवश्यकं
परम् आवश्यकम्
एकस्य
व्यञ्जनानन्तस्य तत्र प्रायशः तत्र न सम्यक्तया न दृश्यते व्यञ्जनानन्तस्य
शब्दस्य रूपाणि सावधानं पश्यन्ति चेत् तत्सदृशानां व्यञ्जनान्तानां रूपविषये ज्ञानं सरलतया भवति
इति अतः तत्र यदि तत्र जकारान्तपदस्य एकं रूपं पश्यामः तत्र ऋत्विक् इति रूपस्य तस्य विभक्ति प्रथमविभक्तिरूपं जानीमश्चेत् बिशक् इति तस्य विभक्तिरूपमपि कर्तुं शक्नुमः. धीमान् इति तकारान्तपदस्य ज्ञानम् अस्ति चेत् तस्य विभक्तेः ज्ञानम् अस्ति चेत् बुद्धिमान् इति प्रातिपदिकस्य अपि रूपाणि कर्तुं शक्नुमः. राजनकारान्तपदं मन्त्री इति पदं राजा इति पदं जानीमः, मन्त्री इति पदस्य अपि विभक्तिरूपं कर्तुं शक्नुमः इति इति अत्र दत्तमस्ति. सरलतया एतत् सर्वं कर्तुं शक्नुमः. अतः तत्र तकारान्तपदं नकारान्तपदं जकारान्तपदं दकारान्तपदं
सकारान्तपदम्
इति आगच्छति. तत्र अग्रे गत्वा पश्यामः तत्र सारल्यम् अस्ति एव, केवलं प्रथमा अपि द्वितीयविभक्तौ क्लेशः अस्ति, किन्तु तदनन्तरं सारल्यम् अस्ति एव. अस्तु तर्हि तत्र अग्रे रघुवीरानन्दमहोदय भवान् एव तत्र अधोभागे तत् कोष्टकम् अस्ति तत् एकवारं पठित्वा समापयामः.
अवधेयम् एकवाचनानन्तरूपं दृष्ट्वा अन्तनिर्णयं मा कुरुत. प्रत्युत तदर्थं बहुवचनस्य अन्तिमं व्यञ्जनं पश्यत. एकवचनं बहुवचनं वणिक्
तत्र वणिक् दृष्ट्वा ककारः अस्ति अन्ते, किन्तु बहुवचने वणिजः इति अस्ति, अतः बहुवचनं सुलभः अस्ति खलु, तत्र जकारान्त इति सूचयति. अग्रे महोदय
अग्रिमं
राजा
राजानः नकारान्तः अस्ति
नकारान्तः अस्ति. विद्वान्
विद्वान् विद्वांसः विद्वांस् इति सकारान्तपदम् अस्ति.
विद्वस् विद्वस् इति सकारान्तपदं सकारान्तपदम् अत्र रूपं न जानीमः, केवलं तत्र अन्ते कः वर्णः इति तस्य ज्ञानं भवति तावदेव.
मन्त्रिनिति
वक्तुं शक्नुमः. सत्यं महोदय. अग्रे
मन्त्रि किन्तु तालव्य तालव्यन दन्तव्य महोदय दन्तव्यनकारः न
सत्यं 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 तत्र प्रातिपदिके तत्र अन्तिमनकारः तत्र णत्वं न भवति इति नियमः अस्ति, अतः मन्त्रिन् इति भवति. किन्तु यदा विभक्तिं कुर्मः तत्र मन्त्रिणः इति तादृशरूपं भवति, मन्त्रिणौ तत्र णत्वं भवति, किन्तु प्रातिपदिके नकारः दन्तव्य नकारः एव.
तदनन्तरं सम्राट् सम्राजः
जकारान्तपदं
जकारान्तम् अस्ति प्रातिपदिकं सम्राज्ये
सम्राज्येव 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 महोदय सत्यं सम्राज्य
सम्राज् आत्मा आत्मानः आत्मन् शब्दमिति
आत्मन् शब्दः
प्रसिद्धपदम् आम. धीमान् धीमन्तः धीमान् पूर्वं दृष्टम् इति
तकारान्तपदं धीमन्तः तकारः अन्ते अस्ति धीमत् इति
पुमांसः
अतः तत्र सकारान्तपदं पुंस् इति पुंस् अथवा पुमस् इति तत्र पुंस् इति अत्र पुस्तके दत्तमस्ति. अत्र अतः
विद्वस् इति खलु महोदय तत्र विद्वस् अकारः श्रूयते विद्वस् अतः अहं चिन्तयामि अत्र
अस्तु महोदय अतः तत्र पुस्तके
अत्र
सत्यं महोदय
वाचस्पत्यं तदेव दत्तमस्ति पुमस्
इति अस्तु पश्यामः अन्वेषणं कुर्मः. किन्तु सकारान्तपदम् इति जानीमः. अपि अन्यत् तत्र अत्र धीमान् अपि पुमान् रूपसामान्य समानता तत्र अस्ति खलु, धीमान् पुमान् इति, किन्तु एकवचने यदि पश्यामः तत्र क्लेशः भवति. धीमान् इति तकारान्तपदमस्ति, पुमान् इति सकारान्तपदमस्ति. अतः एकवचनरूपं मा पश्यतु, बहुवचनरूपमेव पश्यतु इति. अत्र
बहु उपकारि
क्षम्यतां,
विद्वान् प्रातिपदिकं विद्वंस,
विद्वस् विद्वस् विद्वस्
नो डाट्
अनुस्वारः नास्ति, अनुस्वारः नास्ति, विद्वस् एव
अनुस्वारः. अण्ड् अबौट् द उपरि, ध उपरि डाट् डाट्
नास्ति, नास्ति नास्ति, विद्वस्
डाट् नास्ति,
विद्वस् इति एव अस्ति, विद्वस् एव अस्ति.
बट् पुंसः पुंसः
तत्र मकारः अस्ति, मकारः अस्ति अत्र, अनुस्वारः अस्ति, मकारः अपि अस्ति, अतः समीचीनमेव. अस्तु रघुवीरानन्दमहोदय, तत्र अधोभागे यत् वाक्यमस्ति तत् पठित्वा समापयामः.
पठामि भो महोदय.
पूर्वोक्तः
पूर्वोक्तः नियमः व्यञ्जनानन्तविषये एव, न तु स्वरान्तविषये. यथा हरयः, गुरवः, दधीनि इत्यादिषु बहुवचनरूपेषु अन्ते यकार वकार नकारादयः दृश्यन्ते, इत्यतः ते यकारान्ताः वकारान्ताः नकारान्ताः च सन्ति इति निर्णयं मा कुरुत.
खलु हरयः इति दृष्ट्वा यकारान्तपदम् इति, अतः तत्र एतत् एषः नियमः केवलं हलन्तपदानां नियमः, न तु अजन्तपदानाम् इति. अस्तु, समीचीनमस्ति. बहु किमपि अद्य कृतवन्तः हलन्तपदस्य प्रथमविभक्तिरूपस्य विषये. अग्रे गत्वा तत्र स्त्रीलिङ्ग हलन्तपदानामपि, नपुंसकलिङ्ग हलन्तपदानामपि परिचयः भवति अग्रे. अस्तु, तत्र केवलम् एकनिमिष बाणचित्रि महोदय, तत्र अन्ते शान्तिमन्त्रम् इति प्रार्थनाम् इति उक्त्वा समापयामः.
ॐ ॐ पूर्णमद पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्तिः शान्तिः शान्तिः. हरिः ॐ. श्रीगुरुभ्यो नमः. हरिः ॐ.
धन्यवादः महोदय, सर्वेषां धन्यवादः. नमस्कारः.
नमस्कारः समीचीन सूचना अस्ति महोदय इदानीम्.
अस्तु महोदय,
बहुवचनं दृष्ट्वा क्लेशः अस्ति मम तत्र, कथं जानीमि जानामि इति इदानीं
स्पष्टः अस्ति.
सूचना लभ्यते.
बहु उपयोगः.
अस्तु, धन्यवादः.
धन्यवादः.
धन्यवादः.